नमस्कारः।
पञ्चमोऽङ्कस्य कथासङ्क्षेपः। शुक्राचार्यस्य आश्रमप्रदेशः। प्रथमं सायङ्कालः सञ्जातः इति बोधयितुं नेपथ्ये श्लोकः एकः श्रुतः। ततः परं देवयानायाः चिन्ता वर्णिता, यतः प्रतिदिनं कचः सायङ्कालाभ्यन्तरे सन्ध्याकालाभ्यन्तरे उट्टजं प्रति समागच्छति, किन्तु अद्य सन्ध्याकालम् अतिक्रम्यपि तेन न आगतम् इति सा शुक्राचार्यं कचम् अन्वेषयितुं प्रार्थयति। शुक्राचार्यः देवयानायाः प्रार्थनां श्रुत्वा कचम् अन्वेषयति, ज्ञानदृष्ट्या अनर्थः जातः इति ज्ञाय देवयानां तथैव स्थातुम् आज्ञप्य सः नेपथ्यं गत्वा मृतसञ्जीवन्या कचम् उज्जीव्य कचेन सह समागच्छति। कचं दृष्ट्वा देवयाना हृष्टा भवति। ततः परं देवयानया पृष्टः कचः वने किमभवत् इति वदति। भयङ्करसूकरैः सह परिवृत्तः ततः परं त्राहिगुरो इति वदन् सः मूर्च्छङ्गतः इति वदति। ततः परं शुक्राचार्यः यथार्थं वदति, सूकररूपराक्षसैः मारितः कचः इति। ततः परं सः दिष्ट्या जीवितोऽसि पुत्र, गच्छ सन्ध्याम् उपास्व इति वदति। देवयानां च कालोचितम् अनुष्ठानं कुरु इति उक्त्वा प्रथमभागः समाप्यते। ततः परं वसन्त ऋतुदयः बोधितः, रङ्गमञ्चे कचदेवयानयोः प्रवेशः सूचितः, देवयानाथं प्रकृतिसौन्दर्यं द्रष्टुम् आह्वयति। कचस्तु पालाशदण्डानां सङ्ग्रहणे व्यग्रः वर्तते। ततः परं आगच्छति प्रकृतिसौन्दर्यं पश्यन्ती देवयाना एकैकमपि विषयं शृङ्गाररसेनान्वितो वदति, किन्तु कचः स्वस्य भक्तिरसेन सर्वमपि अन्यथयति। अनन्तरं कचः सन्ध्याकालः सम्प्राप्तः, अतः उटजं प्रति गच्छावः इति देवयानाम् आह्वयति। देवयाना ततः गच्छति।
अद्य मृतसञ्जीवननाटकस्य षष्ठम् अङ्कं पठामः। लघु अङ्कः, सरलः अपि भवति। आरम्भे वृषपर्वा अमात्यश्च प्रविशतः। वृषपर्वा अमात्येन सह रङ्गं प्रविशति। वृषपर्वणः सभा। अमात्यः विजयस्व महाराज, विजयः भवतु। वृषपर्व किम् आकाशे इति पृच्छति। अतः अत्र इदानीं तस्य वृषपर्वणः विश्वासः एव नास्ति। देवासुराणां मध्ये यद् युद्धं प्रचलति तस्मिन् युद्धे असुराणां पक्षे जयः भवति इति तस्य विश्वासः एव नास्ति इति कारणेन आकाशे एव विजयः वा इति पृच्छति, किम् आकाशे इति। अमात्यः, मा भूत् एवं नैराश्यम्। एवं नैराश्यं मा भवेत्, मास्तु नैराश्यं, निराशा मास्तु, विश्वासः आवश्यकः। वृषपर्व वदति प्रयत्नवैफल्ये तदेव शरण्यम् इति। इदानीं मम प्रयत्नः सर्वः अपि विफलः जायमानः अस्ति। असुराणां पक्षे क्रियमाणः प्रयत्नः सर्वः अपि इदानीं विफलतां प्राप्नोति, अतः मार्गान्तरं नास्ति, नैराश्यम् एव शरणं, तदेव शरण्यम् इति। अत्र नैराश्यम् एव शरण्यम्, अस्माकं को मार्गः अस्ति इति पृच्छति। प्रयत्नस्य वैफल्ये सति, प्रयत्नस्य विफलता सफलता नास्ति, मम प्रयत्नस्य सफलता नास्ति, तर्हि नैराश्यम् एव शरण्यम् इति वृषपर्व वदति। अमात्यः, आफलोदयानि खलु कर्माणि, आरब्धानि कार्याणि सर्वं फलपर्यन्तं करणीयानि भवन्ति इति। आफलोदयानि फलपर्यन्तं भवेत् सर्वमपि कर्म इति। वृषपर्व क्षुरप्रेण मुण्डितोऽपि पुनरपि जायते खलु कचः। वृषपर्वणः चिन्ता अस्ति, पूर्वस्मिन् अध्याये दृष्टवन्तः किल, कचः सूकरैः मारितः भवति, पुनः शुक्राचार्यः कचं मृतसञ्जीवमन्त्रेण जीवयति इति। एवं तदेव तस्य विवक्षा अस्ति, वृषपर्वणः विवक्षा अस्ति अनेन वाक्येन, क्षुरप्रेण मुण्डितोऽपि पुनरपि जायते खलु कचः इति। क्षुरप्रः इत्युक्ते एक शार्प् एज्ड् इन्स्ट्रुमेण्ट् अस्त्रं किमपि तीक्ष्णम् अस्त्रं किमपि तेन मुण्डितः अपि नाम मारितः अपि पुनरपि जायते खलु कचः कचकुमारः पुनरपि पुनः अपि जीवनं प्राप्नोति किल इति अत्र इतोपि श्लेषेन इतोपि एकम् अर्थं वक्तुं शक्यते अत्र क्षुरप्रेण मुण्डितोपि पुनः मुण्डितो अपि पुनरपि जायते खलु कचः कचः इति अत्र केशः इति अपि अर्थः अस्ति एवं चुरिकया कर्तितः केशः पुनरपि जायते किल इति अपि अत्र एक श्लेषेन अर्थान्तरमपि सिद्ध्यति एवम् अत्र तीक्ष्णेन केनचित् अस्त्रेण मारितः अपि कचकुमारः पुनः जायते एव इति वृषपर्वणः चिन्ता अमात्यः शतकोटिदारिद्र्याणाम् अनन्तकोटि उपायाः अन्वेषणेक्षणः कृतो मया अस्मद्विपक्षीयः शतकोटिदारिद्र्याणाम् अनन्तकोटि उपायाः सन्ति नाम यस्य कस्यापि क्लेशस्य प्राब्लम् अस्ति चेत् तस्य अनेके उपायाः सन्ति शतकोटिदारिद्र्याणां दारिद्र्यम् इत्युक्ते न केवलं दारिद्र्यं किमपि कष्टानां एकशतं कष्टानि भवन्ति चेदपि तत्र अनन्तकोटि उपायाः सन्ति तस्य कष्टस्य तत् कष्टं निवारयितुम् अतः एतस्यापि बहवः उपायाः भवन्ति चिन्तां न करोतु इति अमात्यः वृषपर्वाणम् आश्वासयति पुनः अन्वेषण ईक्षणः कृतः मया अस्मद्विपक्षीयः विपक्षीयः नाम शत्रुः सो अस्माकं शत्रुः अन्वेषणेक्षणः कृतः नाम सम्यक् परिशीलनं कृतः मया समीक्षितः वृषपर्व उच्यतामिदम् अमात्यवर ननु शुक्रस्य कथम् आदरभाजनम् आसीद् इति महदिदम् आश्चर्यम् अमात्यवर वृषपर्वणः सन्देहः अस्ति कथं कचकुमारः शुक्राचार्यम् आकृष्टवान् इति वृषपर्वणः सन्देहः अस्ति अतः उच्यतां हे अमात्यवर इदम् उच्यताम् शुक्रस्य आदरभाजनं कथम् आसीत् इति महत् इदम् आश्चर्यं मम आश्चर्यम् अस्ति कथं कचकुमारः शुक्रस्य आदरभाजनम् अभूत् नाम शुक्रः कचं तावत् इच्छति तावत् कचे तावत् आदरः शुक्राचार्यस्य अस्ति इति एतत् कथं साध्यं कथम् अभवत् इति पृच्छति तदा अमात्यः वदति प्रियदुहितृकः आचार्यः तत् प्रियं करोति इति न इदम् आश्चर्यं प्रियदुहितृकः आचार्यः शुक्राचार्यः प्रियदुहितृकः नाम तस्य पुत्रीं बहु इच्छति सः प्रियपुत्रीकः अस्ति आचार्यः पुत्री तु कचम् इच्छति अतः पुत्री यद्यत् इच्छति तत्सर्वं शुक्राचार्यः अपि इच्छति कारणं शुक्राचार्यः पुत्रीम् इच्छति पुत्री कचम् इच्छति अतः शुक्राचार्यः अपि कचम् इच्छति इति अर्थः सो प्रियदुहितृकः आचार्यः तत् प्रियं करोति नाम तस्याः पुत्र्याः प्रियं करोति इति अत्र आश्चर्यमेव नास्ति पुत्री कचम् इच्छति इति कारणेन शुक्राचार्यः अपि कचम् इच्छति एव वृषपर्व वदति वनमल्लिका कुसुमपेशलाम् अस्मत् गुरुतनयां नित्य अग्निहोत्रपरतन्त्रः सः वटुः कथम् आकर्षति सः वटुः कचकुमारः कथम् आकर्षति अस्माकं गुरुतनयां नाम शुक्राचार्यस्य पुत्रीं देवयानाम् एषः कचः कथम् आकृष्टवान् इति पृच्छति कीदृशी देवयाना इत्युक्ते वनमल्लिका कुसुमपेशलां गुरुतनयां वनमल्लिका कुसुमं पुष्पं मल्लिका पुष्पम् इव मृदुला अस्ति एषा देवयाना गुरुतनया गुरोः पुत्री तादृशीं मृदुलस्वभावयुक्तां तां कथं कचः आकृष्टवान् इति पृच्छति कीदृशः कचः सः तु कचः सामान्ययुवकः बालकः इव न आसीत् नित्य अग्निहोत्रपरतन्त्रः सः वटुः कचः कीदृशः नित्यम् अग्निहोत्रकार्ये रतः अस्ति सः कथं देवयानाम् आकृष्टवान् इति पृच्छति वृषपर्व अमात्यः महाराज नवमल्लिका कचम् अपेक्षते खलु नवमल्लिका इत्यपि अत्र आं श्लेषः अस्ति नवमल्लिका नाम पुष्पं पुष्पलता अथवा पुष्पं पुष्पं कथम् अपेक्षते खलु. पुष्पं नवमल्लिकापुष्पम् अस्ति हस्ते अस्ति चेत् निश्चयेन वयं शिरसि स्थापयितुम् इच्छामः एव. नवमल्लिका कथम् इति अत्र शिरः नाम केशः इत्यपि अर्थं स्वीकर्तुं शक्यते. अतः केशं च अपेक्षते एव इति एकः अर्थः. अनन्तरं नवमल्लिका सदृश देवयाना अस्ति, मृदुस्वभावयुक्ता अस्ति. अतः तादृशी स्वभावयुक्ता देवयाना अपि कथम् अपेक्षते एव, कचकुमारम् इच्छति एव, अपेक्षते एव इति अर्थः. वृषपर्व कथा किं धूर अधिरोहिणी, वृषपर्व पृच्छति एतयोः अनुरागकथा बहु दूरं गता किम् इति. धूरम् अधिरोहिणी किम् इति, बहु दूरं गता वा एतयोः कथा, कचदेवयानयोः कथा इति पृच्छति अमात्यः. प्रथमे किल सोपाने, न बहु दूरं न कथा एतयोः कथा, प्रथमसोपाने एव अस्ति वृषपर्व. द्वितीयसोपान आरोहणात् पूर्वमेव कथायाः तस्याः पादभङ्गः कर्तव्यः. एतयोः अनुरागकथा इतोपि अग्रे यावत् गच्छति तावता कथायाः पादभङ्गः करणीयः. नाम यथा तयोः अनुरागः इतोपि अग्रे न नीयते वर्धते तथा किमपि करणीयम् इति अमात्यः. बाढं समयो निरीक्ष्यः उचितः कालः अपेक्ष्यः. विनयादिशीलैः पितरं वयोरूपाभ्यां दुहितरं सममेव समाकर्षति कचहतकः. एषः कचहतकः कचपातकः किं कृतवान् अस्ति, विनयादिशीलैः विनयादिसद्गुणैः सः पितरम् आकृष्टवान् नाम शुक्राचार्यम् आकृष्टवान् अस्ति. वयोरूपाभ्यां वयसा रूपेण नाम सौन्दर्येण च दुहितरं पुत्रीं देवयानां च आकृष्टवान्, सममेव आकृष्टवान्. अतः द्वयोः मनः अपि आकृष्टवान् अस्ति एषः. विनयादिगुणैः पितरम् आकृष्टवान्, वयसा रूपेण च दुहितरं देवयानाम् आकृष्टवान् अस्ति वृषपर्व. तथा तन्मारण उपायः चिन्त्यताम्, यथा अस्मद्गुरुः न शङ्कते वेत्ति च, सर्वं तस्मिन् प्रतिष्ठितम् अस्मद्भाग्यं. तथा तद्मारण उपायः चिन्त्यताम्, कचस्य मारणं कथमपि भविष्यति तदर्थम् एकः उपायः चिन्त्यताम्, एकम् उपायं चिन्तयतु इति अमात्यं वदति वृषपर्व. यथा कीदृशः उपायः भवेत्, अस्मद्गुरुः यथा न शङ्कते न वेत्ति च. तस्य अस्म शुक्राचार्यस्य शङ्का अपि न भवेत्, अस्माभिः एव कृतम् इति कृतं कार्यम् इति तस्य शङ्का अपि न भवेत्, सः न वेत्ति अपि, सः यथा न जानाति तथा कोऽपि उपायः चिन्त्यताम्. सर्वं तस्मिन् प्रतिष्ठितम् अस्मद् भाग्यम्, अस्मद् भाग्यम् असुराणां भाग्यं सर्वम् इदानीं तस्मिन् प्रतिष्ठितं, कस्मिन्? सत्यं शुक्राचार्यः एव तस्य मन्त्रबलम् अस्ति, अतः शुक्राचार्य एव अस्माकं भाग्यं सर्वं प्रतिष्ठितम् अस्ति. अमात्यः बाढं महाराज, तथा मन्त्रयामि अभ्युपायं, यथा निष्ठुरब्रह्मचर्य अनुष्ठानपटुः सह वटुः अपुनरावृत्तिपदम् उपनीयते, स्मृतिम् अभिनीय आहा महाराज स्फुरितम्. बाढं महाराज, अवगच्छामि अहं. तथा मन्त्रयामि अभ्युपायम्, अहम् एकम् उपायं मन्त्रयामि, अहम् एकम् उपायं वदामि. यथा कीदृशम् उपायम् इत्युक्ते, निष्ठुरब्रह्मचर्य अनुष्ठानपटुः सह वटुः अपुनरावृत्तिपदम् उपनीयते. सः वटुः कचकुमारः अपुनरावृत्तिः नाम यतः पुनः न आगच्छति, पुनः तस्य आवृत्तिः नाम कमिङ्ग् बेक् न भविष्यति, तथा अहम् एकम् उपायं मन्त्रयामि. कीदृशः वटुः सः? निष्ठुरब्रह्मचर्य अनुष्ठानपटुः वटुः, कठोरब्रह्मचर्यव्रत अनुष्ठाने सः पटुः अस्ति, एक्स्पर्ट् अस्ति, निपुणः अस्ति. तादृशः वटुः सः कचकुमारः यथा पुनः न आगच्छति, यथा तस्य पुनः आवर्तनं नाम आगमनं न भविष्यति, तथा अहम् एकम् उपायं मन्त्रयामि इति उक्त्वा स्मृतिम् अभिनयति, किञ्चित् नेत्रं निमील्य चिन्तयति, चिन्तयित्वा पुनः आहा महाराज स्फुरितम्. उपायः इदानीं स्फुरितः इति वदति. कथमिव अमात्यवर, वृषपर्व पृच्छति कथं, क उपायः. अमात्यः श्रूयतां महाराज, मदिराप्रियः खलु भगवान् भार्गवः, रहःप्रदेशे कचं निहत्य भस्मीकृत्य तद्भस्ममिश्रा मदिरा गुरुणा पाययितव्या. शुक्र उदरान्तरे सः वटुः, अगस्त्य उदरान्तरे वातापिः इव जीर्येत. कथं पृच्छति अमात्यः, चिन्तितम् उपायं वदति. मदिराप्रियः खलु भगवान् भार्गवः, भगवान् भार्गवः शुक्राचार्यः मदिराप्रियः नाम मद्यपानं बहु सेवते स्म सः. रहःप्रदेशे कचं निहत्य, रहसि प्रदेशे, रहसि प्रदेशे कचं निहत्य, कचं मारयित्वा भस्मीकृत्य, चूर्णीकृत्य, कथं कचकुमारं मारयित्वा तं तस्य मृतं शरीरं चूर्णीकृत्य तद् भस्ममिश्रा मदिरा गुरुणा पाययितव्या. तेन भस्मना मिश्रितं मद्यपानं गुरुं पाययामः. तदेव गुरुं पाययामः. किं पाययामः? सः यदा मदिरां पिबति, मद्यपानं पिबति, तदा किं करणीयम् अस्माभिः? कचकुमारं मारयित्वा तस्य मृतशरीरस्य भस्मना मिश्रितं मद्यपानं वयं गुरोः कृते दद्मः. रहःप्रदेशे, रहसि प्रदेशे कचं निहत्य, कचं मारयित्वा भस्मीकृत्य, चूर्णीकृत्य तद्भस्मराशिना तद्भस्ममिश्रा मदिरा, मदिरा मद्यपानं, तस्य कचस्य भस्मना मृतशरीरस्य भस्मना मिश्रितं मद्यपानं गुरुणा पाययितव्या. गुरुं पाययामः. शुक्र उदर अन्तरे, शुक्राचार्यस्य उदरस्य अन्तरे, उदरे सः वटुः, सः कचकुमारः अगस्त्य उदरान्तरे वातापिः इव जीर्येत. यथा अगस्त्यस्य उदरे वातापि नाम राक्षसः जीर्णं प्राप्तवान्, तथा कचस्य अपि जीर्णं भविष्यति शुक्राचार्यस्य उदरे इति. तां कथाम् इदानीं स्मरामः वा? वातापि नाम राक्षसः कथम् अगस्त्यस्य उदरे जीर्णं प्राप्तवान् इति.
ईवलः वातापिः इति राक्षसौ द्वौ
आस्ताम्.
तेषां दिनचर्या तु एवमासीत्, अतिथिसत्काराय कमपि मुनिम् आनीय तं मुनिं भोजयितुम् एते तदा वातापिः अजरूपं धरति, तं संहृत्य तमेव पक्वं कृ इल्वलः तं मुनिं
भोजयति.
यदा महर्षिः समाप्यति तदा इल्वलः वातापि बहिरागच्छ इति तम् आह्वयति. तदा उदरस्थः वातापिः महर्षेः शरीरं भित्त्वा बहिरागच्छति.
तदा महर्षिः यः आगच्छति भोजनार्थं, सः अतिथिः मरणं प्राप्नोति. तस्मात् पुनः
तं महर्षिमेव
पक्वं कृत्वा
खादन्ति.
कदाचित् एकवारम् अगस्त्यम् आनयन्ति भोजनार्थं.
समानम् अनुष्ठानं करोति स्वापि, तथा वातापिः अगस्त्यस्य भोजनं भवति. अगस्त्यः अपि तं भोजनं खादित्वा यदा इल्वलः वातापि बहिरागच्छ इति आह्वयति तदा ततः पूर्वमेव अगस्त्यः वातापि जीर्णो भवतु इति उक्तवान्. तदा वातापिः अपि जीर्णः अभवत्. ततः तेषां रहस्यं जानन् अगस्त्यः इल्वलमपि शापं दत्त्वा ततः प्रस्थितः.
इदानीं वृषपर्व विकट अट्टहासं कुर्वन् साध्वमात्य साधु स्वयं कृते गर्ते स्वयमेव पतिताः सुराः. अमात्य उत्तमः उपायः अस्ति. स्वयं कृते गर्ते स्वयमेव पतिताः सुराः. देवाः सर्वे अपि स्वयं कृते गर्ते नाम एतत् साक्षात् तमिळ्भाषायां तान् तोण्णकुडील ताने विळुन्दा इति वदामः किल. नाम कचं प्रेषयित्वा मृतसञ्जीवनमन्त्रं ज्ञातुं ये इष्टवन्तः सुराः सुराणाम् इच्छा आसीत् सुरैः कृतः उपायः सुरानेव नाशयति इति अर्थः स्वयं कृते गते स्वयमेव पतिताः सुराः वृषपर्व एकम् अर्धं वदति अमात्यः द्वितीयम् अर्धं वदति श्लोकस्य प्रथमः अर्धः एवमस्ति अत्यन्तप्रियपुत्रशोकदहनात्
अत्यन्तप्रियपुत्रशोकदहनात्
दग्धो विदग्धो गुरुः
दग्धो विदग्धो गुरुः
कार्याकार्यविवेकशून्यमनसो
कार्याकार्यविवेकशून्यमनसो
नाकौकसः प्रायशः
नाकौकसः प्रायशः
तत्र वृषपर्वा वदति अत्यन्तप्रियपुत्रशोकदहनात् दग्धः विदग्धः गुरुः कार्य गुरुः इत्युक्ते बृहस्पतिः एव सो बृहस्पतेः स्थितिः कथं भवति इत्युक्ते अत्यन्तप्रियपुत्रशोकदहनात् विदग्धः गुरुः विदग्धः नाम पण्डितः गुरुः बृहस्पतिः अत्यन्तप्रियपुत्रशोकदहनात् अत्यन्तप्रियपुत्रः अस्ति कचकुमारः तस्य मरणवार्ता श्रवणेन शोकः भवति तस्य तेन शोकेन शोकेन सः दग्धः भवति शोकदहनात् दग्धः शोक इति उष्णेन शोक उष्णेन सः दग्धः भवति तादृशः विदग्धः गुरुः पण्डितः बृहस्पतिः एवं भवति नाकौकसः नाम देवाः नाकौकसां स्थितिः कथं भवति इत्युक्ते कार्य अकार्य विवेकशून्यमनसः नाकौकसः नाम यदि गुरुः दग्धः चेत् बृहस्पतेः नाशः भविष्यति पुत्रस्य मरणवार्ता श्रवणेन बृहस्पतिः मरणं प्राप्नोति बृहस्पतिः मरणं प्राप्तवान् नाम गुरुः अस्ति चेदेव मार्गं दर्शयितुं शक्नोति अतः मार्गदर्शनं न भवति तेषां देवानाम् अतः कार्य अकार्य विवेकशून्याः भवन्ति किं कर्तव्यं किम् अकर्तव्यम् इति कर्तव्यता मूढाः जायन्ते सुराः सर्वे नाकौकसः प्रायशः प्रायेण कार्य अकार्य विवेकशून्यमनसः भविष्यन्ति कार्यं किं करणीयं किं न करणीयम् इति तेषां विवेकबुद्धिः एव न भवति इति इति वृषपर्व वदति एवं बृहस्पतिः तु एवं बृहस्पतेः मरणं भविष्यति निश्चयेन पुत्रस्य प्रियपुत्रस्य शोकदहनात् मरणवार्ता श्रवणेन शोकोष्णेन सः दग्धः भविष्यति गुरुः बृहस्पतिः गुरोः मरणेन एते सुराः देवाः सर्वे अपि कार्य अकार्य विचारमूढाः भविष्यन्ति तदा अमात्यः उत्तरम् इतोपि श्लोकस्य द्वितीयम् अर्धम् अपरार्धं पठति सिद्धं नन्दनवाटिका विहरणं
सिद्धं नन्दनवाटिका विहरणं
रम्भापरीरम्भनम्
रम्भापरीरम्भनम्
रक्षाबन्धनमाश्रिते प्रतिभटे
रक्षाबन्धनमाश्रिते प्रतिभटे
कारागृहे बन्धनम्
कारागृहे बन्धनम्
किं किं तेषां सिद्धं भवति यदि बृहस्पतिः मरणं प्राप्स्यति सुराः सर्वे अपि विवेकशून्याः भविष्यन्ति चेत् तेषां सर्वं सिद्धं केषाम् असुराणां सिद्धं भवति किं सिद्धं भवति नन्दनवनवाटिका विहरणं सिद्धं भवति रम्भापरीरम्भणमपि सिद्धं भवति नन्दनवनम् अमरावत्यां विद्यमान इन्द्रस्य वनमस्ति नन्दनवनं तत्र तेषां विहरणं तु सिद्धं भवति तस्यां वाटिकायां तेषां विहरणं नाम क्रीडादिकं सर्वं सिद्धं भवति रम्भादि अप्सरस्वीभिः अप्सरोभिः सह रमणं कर्तुमपि शक्नुवन्ति रम्भा परीरम्भणं नाम आश्लेषणम् आलिङ्गनमपि सिद्धं भवति इति रक्षाबन्धनम् आश्रिते प्रतिभटे कारागृहे बन्धनं तदपि सिद्धं भवति किं किं सिद्धं भवति प्रतिभटे कारागृहे बन्धनं सिद्धं भवति प्रतिभटः नाम शत्रुः ये शत्रुत्वम् आचरन्ति तेषां कारागृहे बन्धनं सिद्धं भवति सो रक्षाबन्धनम् आश्रिते आश्रितानाम् असुरान् आश्रितानां सुराणां रक्षाबन्धनं सिद्धं भवति ये प्रतिभटे प्रतिभटे नाम ये प्रतिकूलम् आचरन्ति, सुराः ये प्रतिकूलम् आचरन्ति तेषां कारागृहे बन्धनमपि सिद्धं भवति इति अमात्यः वदति इति निष्क्रान्तौ। वृषपर्व अमात्यौ द्वौ रङ्गमञ्चात् निर्गच्छतः इति शक्तोङ्कः।